कुचेलनामा भवतः स तीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः त्वदेकरागेण धनादिनिस्पृहः दिनानि निन्ये प्रशमी गृहाश्रमी समानशीलापि तदीयवल्लभा तथैव नो चित्तजयं समेयुषि कदाचिदूचे बत वृत्तिलब्धये रमापतिः किन्न सखा निषेव्यते इतीरितोयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे तदा त्वदालोकनकौतुकाद्ययौ वहन् पटान्ते पृथुकान् उपायनं गतोऽयम् आश्चर्यमयीं भवत्पुरीं गृहेषु शैब्याभवनं समेयिवान् प्रविश्य वैकुण्ठमिवापनिर्वृतिं तवातिसम्भावनया तु किं पुनः प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वा कथयः पुरा कृतं यदिन्धनार्थं गुरुदारचोदितैः अपर्तुवर्षं तत् अमर्षिकानने त्रपाजुषोऽस्मात् पृथुकं बलादथ प्रगृह्यमुष्टौ सकृदाशिते त्वया कृतं कृतं ननु इयतेति सम्भ्रमात् रमाकिलोपेत्य करं रुरोधते भक्तेषु भक्तेन समानितस्त्वया पुरीं वसन् एकनिशां महासुखं बत अपरेद्युः द्रविणं विनाययौ विचित्ररूपः तव खलु अनुग्रहः यदि ह्ययाचिष्यम् अदास्यदच्युतः वदामि भार्यां किमिति व्रजन्नसौ त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन् मणिदीप्रमालयं किं मार्गबिभ्रंशः इति भ्रमन्क्षणं गृहं प्रविष्टः सददर्शवल्लभां सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुतां स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरः अमृतं ययौ त्वम् एवमापूरितभक्तवाञ्छितः मरुत्पुराधीशा हरस्वमे गदान् ॐ तत्सदिति श्रीमन्नारायणीये सप्ताशीतितमं दशकं समाप्तं श्रीहरये नमः रमा रमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।